देव देव महादेव कृपालज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तर शतम् लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ईश्वर उवाच देविकादु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरम् पुण्यम् सर्वपापप्रणाशनम् सर्वदारिद्र्यशमनम् श्रवणाद्भुक्तिमुक्तितम् राजवश्यकरम् दिव्यम् मुख्याद्भुह्यतमम् वरम् दुर्लभम् सर्वदेवानाम् चतुष्षष्टिकलात्पदम् पद्मादीनाम् वराणाम् निधीनाम् नित्यदायकम् समस्त देवतम् सेव्यम् हनुमाद्यष्टसिद्धितम् किमत्र बहुमुक्तेन देवी प्रत्यक्षदायकम् तव प्रीत्याद्य वक्षामि समाहितमनाशृणु अष्टोत्तरशतस्यास्य महालक्ष्मी तु देवता क्लीं बीजम् पदमित्युक्तम् शक्तिः तु भुवनेश्वरी अङ्गन्यासः करन्यासः श्रामित्यादि प्रकीर्तितः ध्यानम् सौभाग्यदाम् भाग्यदाम् हस्ताभ्यामभयप्रदाम् मणिगणैर्नानाविधैर्भूषिताम् भक्ताभीष्टफलप्रदाम् हरिहर ब्रह्मादिभिस्तेजिताम् पार्श्वे पङ्कज शङ्ख पद्मनिधिभिर्युक्ताम् सदा शक्तिभिः करति जनयने सरोजहस्ते लवणकरम् सुगन्धमाम् यशोभे भगवधिकरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमस्यम् प्रकृतिम् विकृतिम् विद्याम् सर्वभूतहितप्रदा श्रद्धाम् विभूतिम् सुरविम् नमामि परमात्मिकम् वाजम् पद्मालयाम् पद्माम् शुचिम् स्वाहाम् स्वधाम् सुधाम् धन्याम् हिरण्मयीम् लक्ष्मीम् नित्यपुष्पाम् विभावरी अतिथिम् चतिथिम् दीप्ताम् वसुदाम् वसुदारिणी नमामि कमलाम् कान्ताम् कामाम् क्षीरोदसम्भवाम् अनुग्रहपदाम् बुद्धिम् अनघाम् हरिवल्लभा अशोकामृताम् दीप्ताम् लोकशोकविनाशिनी नमामि धर्मनिदयाम् करुणाम् लोकमातरम् पद्मप्रियाम् पद्महस्ता पद्माक्षिम् पद्मसुन्दरी पद्मोद्भवाम् पद्ममुखीम् पद्मनाभप्रियाम् रमा पद्ममालाधराम् देवीम् पद्मिनीम् पद्मगन्धिनीम् पुण्यगन्धाम् सुप्रसन्नाम् प्रसादाभिमुखीम् प्रभा नमामि चन्द्रवदनाम् चन्द्राम् चन्द्रसहोदरीम् चतुर्भुजाम् चन्द्ररूपाम् इन्दिरामिन्दुशीतलाम् आह्लादजननीम् पुष्टिम् शिवाम् शिवकरीम् सतीम् विमलाम् विश्वजननीम् पुष्टिम् दारिद्र्यनाशिनीम् प्रीतिपुष्करिणीम् शान्ताम् शुक्रमायाम् पराम् श्रियम् वासरीम् बिम्बनिलयाम् वररूपाम् यशस्विनी वसुन्तरा मृदाराङ्गा हरिणीम् केममालिनी धनधान्य ज्ञगरिं सिद्धिं त्रैण सौम्यां शुभप्रदा नृपवेश्मगदानन्दा वरलक्ष्मीं वसुप्रदां शुभां हिरण्यप्राकारां समुद्रकनयाञ्जयः नमामि मङ्गलां देवीं विष्णुपट्टस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायण शमाश्रिता दारिद्र्यध्वंसनीं देवीं सर्वमुपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरे समुद्रराजतनयं श्रीरङ्गधामेश्वरे काशीभूतसमस्तदेववनिता लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षमध्यविभव ब्रह्मेन्द्रगङ्गाधरा त्वां त्रैलोक्यकुटुम्बिने तरपिदां वन्दे मुकुन्दप्रियां मातं नमामि कमले कमलाय दाक्षी श्रीविष्णुः कमलवासिनी विश्वमातः क्षीरोदये कमल कोमल गर्भगौरि लक्ष्मी प्रसीद सततं नमतां शरण्यै त्रिकालं यौतिपीडित्वानि षण्मासं विजितेन्द्रियः दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोति यत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः बहुवारे सदं धीमान् पटे त्वत्तरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेरैव भूतले दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतं येन श्रियमवाप्नोति कोटिजन्म दरिद्रतः भुक्त्वा ते विपुलानुभवान् अस्य सायुज्यमाप्नुयात् प्रातःकाले पठे नित्यं सर्वदुःखोपशान्तये पटं त्वं चिन्तये देवी सर्वाभरणभूषिता